एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। पाल्पा जनपदस्य माथागढ़ी ग्रामपालिकायाः सप्तम ओडा क्षेत्रस्य रहवास स्थाने ह्य सायं ट्रिपरयानस्य दुर्घटनायां त्रयो जनाः मृताः सन्ति। दुर्घटनायां एको जनः आहत वर्तते। मृतकेष् ट्रिपरयान चालकः अर्घाखाँची जनपदस्य शीतगंगा नगरपालिकायाः चतुर्थ ओडा क्षेत्रस्य चिन्ताबहादुर सुनार वर्तते इति प्रहरिणा ज्ञापितमस्ति। अन्ययोः द्वयोः जनयोः सत्यापनं सम्भूतं नास्ति। गत शुक्रवासरात् सक्रियायाः वर्षण प्रणाल्याः दुर्बली भवनात् वातावरणे क्रमशः सुधारः सम्भूतो वर्तते। जलवायु वातावरण विज्ञान विभागस्य वातावरणविद् विभूति पोखरेलः वातावरणे समीचीन सुधारः सम्भूतो स्थिति असूचयत्। पोखरेलस्य अनुसारेण वर्षा पूर्वकालिक जलवायोः गतिविधिनां पूर्ववत् विद्यमानात् श्व रविवासरेऽपि कुत्रचित् आंशिक वृष्टिः सम्भवति। राष्ट्रपतिः रामचन्द्र पौडेलः निगदति देशे नागरिक स्वतन्त्रतायाः कृते सम्भूतेषु आन्दोलनेषु मधेशी समुदायस्य भूमिका महत्वपूर्णा वर्तते। मधेशी आयोगस्य स्थापना दिवसस्य अवसरे शीतल निवासवर्तिनी राष्ट्रपतिभवने ह्य आयोजिते कार्यक्रमे राष्ट्रपतिः पौडेलः स्वतन्त्रता समभाव सामाजिक न्याय सुशासनं विकासः समृद्धेरभिवर्धनं राष्ट्रियैकता च आन्दोलनस्य उद्देश्यानि वर्तन्ते इति प्रावोचत्। जनाकांक्षाम् आत्मसात्कृत्य राष्ट्रनिर्माणाय अग्रेवर्धनम् अद्यतने आवश्यकता अस्तीति चर्चयन् राष्ट्रपतिः पौडेलः सम्प्रत्येव सम्पन्ने निर्वाचने व्यक्तं जनाभिमतं देशविकासस्य दायित्वं पूरयितुमस्तीति प्रावोचत्। आयोगेन विगतेष् सप्तष् वर्षेष् मधेशी समुदायस्य परिचयस्य अधिकारस्य च कृते आधार निर्मितोऽस्तीति चर्चयन् राष्ट्रपतिः पौडेलः आगामि दिनेष्वपि आयोगेन सक्रियता प्रदर्श्यते इति विश्वासम् अभिव्यनक्। कार्यक्रमे विधि न्याय संसदीय विषय मन्त्री अनिल कुमार सिन्हा मधेश क्षेत्रस्य विविधा भाषा कला संस्कृतिः इतिहासश्च नेपालस्य गौरववर्धकः वर्तन्ते इति प्रावोचत्। राष्ट्रिय मानवाधिकार आयोगस्य अध्यक्षः तपबहादुर मगरः सांस्कृतिक भाषिकाधिकारस्य संवर्धने विकासायोजनानां क्रियान्वयने च मधेशी समुदायस्य सहभागितायाः विषये सर्वकारेण दायित्ववाहितया कार्यं विधातव्यमिति प्रावोचत्। उपराष्ट्रपतिः रामसाय प्रसाद यादवः निगदति मुस्लिम समुदायस्य अधिकारस्य परिचयस्य सशक्तिकरणस्य च कृते इतोऽपि प्रभावपूर्णस्य कार्यक्रमस्य सञ्चालनम् आवश्यकम् वर्तते। मुस्लिम आयोगस्य स्थापना दिवसस्य अवसरे ह्य ललितपुरे आयोजिते कार्यक्रमे उपराष्ट्रपतिः यादवः मुस्लिम महिलानां सामाजिक आर्थिक राजनीतिक क्षेत्रेष् अग्रण्यः भूमिकायाः कृते सामर्थ्य निर्माणस्य कार्यक्रमः नैरन्तर्येण सञ्चालनीया इति आवश्यकताम् न्यश्चिनोत्। राष्ट्रिय मानवाधिकार आयोगस्य अध्यक्षः तपबहादुर मगरः भाषते नेपाले विद्यमानस्य जातीय विभेदस्य उन्मूलनाय आयोगः दृढतया सक्रियो वर्तते। एकषष्टितमस्य अन्तर्राष्ट्रिय जातीय विभेदोन्मूलन दिवसस्य अवसरे ह्य आयोजिते कार्यक्रमे अध्यक्षः मगरः जातीय विभेदस्य अन्त्याय विधिर्निर्माणमेव पर्याप्तं नास्ति अपितु विधेः प्रभावपूर्णं क्रियान्वयनम् आवश्यकमस्तीति प्रावोचत्। अध्यक्षः मगरः राज्यस्य निकायानां नागरिक समाजस्य संचार माध्यमानां नागरिकाणां च प्रयत्नं विना जातीय विभेदस्योन्मूलनम् असम्भवमस्तीति समस्पष्टयत्। राष्ट्रिय दलित आयोगस्य अध्यक्षः देवराज विश्वकर्मा जातीय विभेदः अधुनावधि नेपाली समाजस्य जटिला समस्या अस्तीति प्रावोचत्। राष्ट्रिय महिला आयोगस्य अध्यक्षः कमला कुमारी पराजुली प्रतिनिधिसभा सदस्यः खगेन्द्र सुनारः प्रहरी महानिरीक्षकः दान बहादुर कार्की च जातीय विभेदस्य अन्त्याय राज्यस्य समाजस्य च सर्वै पक्षै सहकार्यं विधातव्यम् इत्यत्र बलं दत्तवन्तः। कपिलवस्तु जनपद प्रशासन कार्यालयेन महाराजगंज नगरपालिकायाः कतिपयेषु क्षेत्रेषु निषेधाज्ञा क्रियान्विता अस्ति। जनपद सुरक्षा समितेः निर्णयस्य अनुसारेण ह्य द्विवादनात् अपरसूचनायाः प्रकाशनं यावत् निर्धारितेषु क्षेत्रेषु जनसम्मर्दः सभा जनप्रदर्शनञ्च निषिद्धानि वर्तन्ते। कपिलवस्तु जनपदस्य महाराजगंज नगरपालिकायाः द्वितीय ओडा क्षेत्रस्य बर्गदा स्थाने द्वयोः समुदाययोः मध्ये सम्भूतस्य विवादस्य कारणेन निषेधा प्रज्ञा क्रियान्विता अस्थिति कपिलवस्तु जनपदस्य निमित्त प्रमुख जनपदाधिकारी भवेश्वर घिमिरे सूचयत्। पूर्वस्याम दिशि वर्गदी सेतु स्थानम्, पश्चिमायाम दिशि बहादुरगंज चोक स्थानम्, उत्तरस्याम दिशि महाराजगंज आपण क्षेत्रम, दक्षिणस्याम दिशि हर्दोनाच स्थानानि यावत् निषेधाज्ञा क्रियान्विता अस्थिति प्रशासनेन ज्ञापितम् वर्तते। उज्यालो नेपाल दलेन जेएनजी युववर्गस्य आन्दोलनस्य घटनाम् अनुसन्धातुं संघटितस्य गौरीबहादुर कार्की इत्यस्य नेतृत्वस्य आयोगस्य प्रतिवेदनं तत्कालं सार्वजनिकर्तुं सर्वकारः अभियाचितोऽस्ति। दलाध्यक्षस्य कुलमान घिसिंह इत्यस्य नेतृत्वस्य प्रतिनिधिमण्डलेन प्रधानमन्त्रिणः सुशीला कार्कीणः समक्षम् अनुसन्धानायोगस्य प्रतिवेदनस्य सार्वजनिकरणेन सहितः विभिन्नः याचनाः प्रस्तुताः वर्तन्ते। सहैव दलेन सुशीला कार्कीणः नेतृत्वे देशस्य कठिनावस्थातः सुरक्षितरूपेण अवतरणं सम्भवम् अभूदिति इत्युक्त्वा वर्धापनञ्च ज्ञापितम् वर्तते। तदवसरे प्रधानमन्त्री कार्की उज्यालो नेपाल दलेन निर्वाचने भागं गृहीत्वा निर्वाचनस्य प्रक्रियायै अस्यै सहयोगो विहितः इत्युक्त्वा प्रशंसां कृतवती। वृष्टेः कारणेन मार्गस्य द्रवीभवनात् यातायात साधनानां सञ्चालने काठिन्यस्य पश्चात् बुटवल नारायणगढ़ मार्गखण्डे यातायात साधनानां सञ्चालनम् अवरूद्धमस्ति। पूर्व पश्चिम राजमार्गस्य अन्तर्गते नवलपरासी बर्दघाट सुस्ता पूर्व जनपदस्य विनयी त्रिवेणी ग्रामपालिकायाः द्वितीय ओडा क्षेत्रस्य दाउन्ने खण्डस्य सेन्द्री भवनात् मार्गोयम् अवरूद्धोऽस्ति इति नवलपरासी बर्दघाट सुस्ता पूर्व जनपदस्य प्रहरी उपरीक्षकः युवराज खड्का असूचयत्। रुग्णवाहकयानं प्रयुज्य तम्बाकुजन्यं पदार्थानां तस्करस्य करणस्य अवस्थायां रसुआ प्रहरिण चत्वारो जनाः निगृहीताः वर्तन्ते। तेषां पार्श्वाद् आसन्न सप्ततेर्लक्षाणां द्वानवतिः सहस्राणाञ्च रूप्यकाणां चीनदेशीय धूमपानदण्डः नियन्त्रिताश्च वर्तन्ते। रसुआ जनपद प्रहरी कार्यालयस्य अनुसारेण अस्यैव चैत्रस्य षष्ठी दिवसे सायम् आसन्नाष्टवादने उत्तर गया ग्रामपालिकायाः पञ्चम ओडा क्षेत्रस्य बेत्रावती वर्तिनी पासाङ लामु राजमार्गे बेत्रावती प्रहरी कार्यालयात् परिचालितेन प्रहरी समूहेन शंकास्पद रूपेण संचलति रुग्णवाहके याने धूमपान दण्डः इमे एतावन् मात्रायां नियन्त्रिताः वर्तन्ते। इति समाचारः।